श्री परमात्मने नमः। अथाष्टादशोऽध्यायः। अर्जुन उवाच, सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्, त्यागस्य च ऋषिकेश पृथक् केशी निषूदन। श्रीभगवानुवाच, काम्यानां कर्मणां न्यासम् सन्न्यासं कवयो विदुः, सर्वकर्मफलत्यागम् प्राहुस्त्यागम् विचक्षणः। त्याज्यम् दोषवदित्येके कर्म प्राहुर्मनीषिणः, यज्ञदान तपः कर्म न त्याज्यमिति चापरे। निश्चयम् शृणु मे तत्र त्यागे भरत सत्तम, त्यागो हि पुरुष व्याघ्र त्रिविधः सम्प्रकीर्तितः। यज्ञदान तपः कर्म न त्याज्यम् कार्यमेव तत्, यज्ञोदानम् तपश्चैव पावनानि मनीषिणाम्। एतान्यपि तु कर्माणि सङ्गम् त्यक्त्वा फलानि च कर्तव्यानीति मे पार्थ निश्चितम् मतमुत्तमम्। नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते, मोहात्तस्य परित्यागस्तामसः परिकीर्तितः। दुःखमित्येव यत्कर्म कायक्लेशभयात् त्यजेत्, सकृत्वा राजसम् त्यागम् नैव त्यागफलम् लभेत्। कार्यमित्येव यत्कर्म नियतम् क्रियते अर्जुन, सङ्गम् त्यक्त्वा फलम् चैव सत्यागस्तात्विको मतः। न द्विष्ट कुशलम् कर्म कुशलेनानुसज्जते, त्यागी सत्त्वसमाविष्टो मेधाविच्छिन्न संशयः। न हि देहभृता शक्यम् त्यक्तुम् कर्माण्यशेषतः, यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते। अनिष्टमिष्टम् मिश्रम् च त्रिविधम् कर्मणः फलम् भवत्या त्यागिनाम् प्रेत्य न तु सन्न्यासिनाम् क्वचित्। पञ्चैतानि महाबाहो कारणानि निबोध मे, साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्। अधिष्ठानम् तथा कर्ता करणम् च पृथग्विधम्, विविधाश्च पृथक्चेष्टा दैवम् चैवात्र पञ्चमम्। शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः, न्याय्यम् वा विपरीतम् वा पञ्चैते तस्य हेतवः। तत्रैवम् सति कर्तार मात्मानम् केवलम् तु यः पश्यत्य कृतबुद्धित्वान् न स पश्यति दुर्मतिः। यस्य नाहङ्कृतो भावो बुद्धिर्यस्य निलिप्यते, हत्वापि सैमान् लोकान् न हन्ति न निबध्यते। ज्ञानम् ज्ञेयम् परिज्ञाता त्रिविधा कर्म चोदना, करणम् कर्म कर्तेति त्रिविधः कर्म सङ्ग्रह। ज्ञानम् कर्म च कर्ता च त्रिधैव गुणभेदतः, प्रोच्यते गुणसङ्ख्यानि यथावच्छृणुतान्यपि। सर्वभूतेषु येनैकम् भावमव्ययमीक्षते, अविभक्तम् विभक्तेषु तज्ज्ञानम् विद्धि सात्विकम्। पृथक्त्वेन तु यज्ज्ञानम् नानाभावान् पृथग् विधान् वेत्ति सर्वेषु भूतेषु तज्ज्ञानम् विद्धि राजसम्। यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम् अतत्त्वार्थवदल्पम् च तत्तामसमुदाहृतम्। नियतम् सङ्गरहित मरागद्वेषतः कृतम् अफलप्रेप्सुना कर्म यत्तत्सात्विकमुच्यते। यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः क्रियते बहुलायासम् तदराजसमुदाहृतम्। अनुबन्धम् क्षयम् हिंसा मनवेक्ष च पौरुषम् मोहादारभ्यते कर्म यत्तत्तामसमुच्यते। मुक्तसङ्गो नहंवादी धृत्युत्साह समन्वितः, सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्विक उच्यते। रागे कर्मफलप्रेप्सुर्लुब्धो हिंसात्मको शुचिः, हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः। अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतकोलसः, विषादी दीर्घसूत्री च कर्ता तामस उच्यते। बुद्धिर्भेदम् द्युतेश्चैव गुणतस्त्रिविधम् शृणु, प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय। प्रवृत्तिम् च निवृत्तिम् च कार्याकार्ये भयाभये, बन्धम् मोक्षम् च या वेत्ति बुद्धिः सा पार्थ सात्विकी। यया धर्ममधर्मम् च कार्यम् च कार्यमेव च अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी। अधर्मम् धर्ममिति या मन्यते तमसावृता, सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसि। धृत्या यया धारयते मनः प्राणेन्द्रियक्रियः, योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्विकी। यया तु धर्मकामार्थान् धृत्या धारयते अर्जुन, प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसि। यया स्वप्नम् भयम् शोकम् विषादम् मदमेव च न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसि। सुखम् त्विदानीम् त्रिविधम् शृणु मे भरतर्षभ, अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति यत्तदग्रे विषमिव परिणामे मृतोपमं तत्सुखं सात्विकं प्रोक्त मात्मबुद्धि प्रसादजम् विषयेन्द्रिय संयोगात् यतदग्रे मृतोपमं परिणामे विषमिव तत्सुखं राजसं स्मृतं यदग्रे चानुबन्धे च सुखं मोहनमात्मनः निद्रालस्य प्रमादोत्तम् सत्तामसमुदाहृतम् न तदस्ति पृथिव्याम् वा दिवि देवेषु वा पुनः सत्त्वम् प्रकृतिजैर्मुक्तम् यदेभिः चात्रिभिर्गुणैः ब्राह्मणः क्षत्रियविषाम् शूद्राणाम् च परन्तप कर्माणि प्रविभक्तानि स्वभाव प्रभवैर्गुणैः शमोदमस्तप शौचम् क्षान्तिरार्जवमेव च ज्ञानम् विज्ञानमास्तिक्यम् ब्रह्म कर्म स्वभावजम् शौर्यम् तेजो धृतिर्दाक्ष्यम् युद्धे चाप्यपलायनम् दानमीश्वरभावश्च क्षात्रम् कर्म स्वभावजम् कृषिगौरक्ष वाणिज्यम् वैश्यकर्म स्वभावजम् परिचर्यात्मकम् कर्म शूद्रस्यापि स्वभावजम् स्वेषे कर्मण्यभिरतः संसिद्धिम् लभते नरः स्वकर्म निरतः सिद्धिम् यथा विन्दति तच्छृणु यतः प्रवृत्तिर्भूतानाम् येन सर्वमिदम् ततम् स्वकर्मणा तमभ्यर्च्य सिद्धिम् विन्दति मानवः श्रेयान् स्वधर्मो विगुणः परधर्मात्सनुष्ठितात् स्वभावनियतम् कर्म कुर्वन्नाप्नोति किल्बिषम् सहजम् कर्म कौन्तेय स दोषमपि न त्यजेत् सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृतः असक्तबुद्धिः सर्वत्र चिदात्माभिगतस्तिह नैष्कर्म्यसिद्धिम् परमाम् सन्न्यासेनाधिगच्छति सिद्धिम् प्राप्तो यथा ब्रह्म तथाप्नोति निबोधमे समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा बुद्ध्या विशुद्धया युक्तो धृत्यात्मानम् नियम्य च शब्दादीन् विषयान् त्यक्त्वा रागद्वेषौ विदस्य च विविक्तसेवे लघ्वासे यतवा कायमानसः ध्यानयोगपरो नित्यम् वैराग्यम् समुपाश्रितः अहङ्कारम् बलम् दर्पम् कामम् क्रोधम् परिग्रहम् विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति समः सर्वेषु भूतेषु मद्भक्तिम् लभते पराम् भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः ततो माम् तत्त्वतो ज्ञात्वा विशते तदनन्तरम् सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः मत्प्रसादादवाप्नोति शाश्वतम् पदमव्ययम् चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः बुद्धियोगमुपाश्रित्य मच्चित्तः सततम् भव मच्चित्तः सर्वदुर्गाणि मत्प्रसादातरिष्यसि अथ चेत्त्वमहङ्कारान् न श्रोष्यसि विनङ्क्ष्यसि यदहङ्कारमाश्रित्य न योत्स्येति मन्यसे मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वाम् नियोक्ष्यति स्वभावजेन कौन्तेय निबद्धस्येन कर्मणाम् कर्तुम् नेच्छसि यन्मोहात् करिष्यस्य वशोऽपि तत् ईश्वरः सर्वभूतानाम् हृद्देशेऽर्जुन तिष्ठति भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया तमेव शरणम् गच्छ सर्वभावेन भारत तत्प्रसादात् पराम् शान्तिम् स्थानम् प्राप्स्यसि शाश्वतम् इति ते ज्ञानमाख्यातम् गुह्याद् गुह्यतरम् मया विमृश्ये तदशेषेण यथेच्छसि तथा कुरु सर्वगुह्यतमम् भूय शृणु मे परमम् वचः इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् मन्मना भव मद्भक्तो मद्याजी माम् नमस्कुरु मामेवैषसि सत्यन्ते प्रतिजाने प्रियोऽसि मे सर्वधर्मान् परित्यज्य मामेकम् शरणम् व्रज अहम् त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः इदम् ते न तपस्काय न भक्ताय कदाचन न चाशुश्रूषवे वाच्यम् न च माम् योऽभ्यसूयति य इमम् परमम् गुह्यम् मद्भक्तेष्वपि दास्यति भक्तिम् मयि पराम् कृत्वा मामेवैष्यत्य संशयः न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः भविता न च मे तस्मा धन्यः प्रियतरो भुवि अध्येषते च यैमम् धर्म्यम् संवादमावयोः ज्ञानयज्ञेन तेनाह मिष्टस्यामिति मे मतिः श्रद्धावानन श्रूयश्च शृणुयादपि यो नरः सोऽपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणाम् कच्चिदेतच्छ्रुतम् पार्थ त्वयैकाग्रेण चेतसा कच्चिदज्ञानसम्मोह प्रनष्टस्ते धनञ्जय अर्जुन उवाच नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत स्थितोऽस्मि गतसन्देह करिष्ये वचनं तव सञ्जय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिमम् अश्रोष मद्गुतम् रोमहर्षणम् व्यासप्रसादाच्युतवा नेतद्गुह्यमहम् परम् योगम् योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम् केशवार्जुनयोः पुण्यम् ऋष्यामि च मुहुर्मुहुः तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतम् हरेः विस्मयो मे महान् राजन् ऋष्यामि च पुनः पुनः यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धर तत्र श्रीर्विजयो भूतिर्ध्रुवानीतिर्मतिर्मम यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिर्ध्रुवानीतिर्मतिर्मम ॐ तत्सदिति श्रीमद्भगवद्गीता सूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्न्यासयोगो नामाष्टादशोऽध्यायः अथ गीतामाहात्म्यम् गीताशास्त्रमिदम् पुण्यम् य पठेत् प्रयतः पुमान् विष्णोः पदमवाप्नोति भयशोकादिवर्धितः गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च मलनिर्मोचनम् पुंसाम् जलस्नानम् दिने दिने सकृद्गीताम्बसि स्नानम् संसारमलनाशनम् गीतासु गीता कर्तव्या इमन्यहि शास्त्रविस्तरैः या स्वयम् पद्मनाभस्य मुखपद्माद्विनिश्चिता भारतामृत सर्वस्वम् विष्णोर्वक्त्राद्विनिश्चितम् गीता गङ्गोदकम् पीत्वा पुनर्जन्म न विद्यते सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः पार्थो वत्स सुधिर्भोक्ता दुग्धम् गीतामृतम् महत् एकम् शास्त्रम् देवकी पुत्र गीत मेको देवो देवकी पुत्र एव एको मन्त्रस्तस्य नामानि यानि कर्माप्येकम् तस्य देवस्य सेवा।